यस्मिन् परिहिते पिस्युः दृश्यान्यङ्गानि चात्मनः तद्दुष्यं वसनं नैव परिधार्यं मदाश्रितैः।